ततर्शरखितैर्मनुजानाम् सत्तमैरनिशसेव्यपदाब्जम् चित्तशुद्धिमभिलित्सुरकम् द्रा दत्तदेवमनिशम् गलयामि. गुरुहत्रितनूजम् पादडम्रशिर आखितहस्तम् श्रीदमुख्यहरिदीश्वर पूज्यम् दत्तदेवमनिशम् गलयामि. नाकनायक समर्चित पादम् पाकचन्द्रधरमौल्यवतारम् कोकबन्धुसमपेक्ष्यमहस्तम् दत्तदेवमनिशम् कलयामि. मूकपङ्गुबधिरादिमलोकान् लोकतस्तदितरान् विदधानम् एकवस्तु परिबोधयितारम् दत्तदेवमनिशम् कलयामि. योगदानत इहैव हरन्तम् रोगमाशु नमताम् भव संज्ञम् रागमोहमुखवैरिनिवृत्त्यै दत्तदेवमनिशम् कलयामि. ज्ञानखण्डम् अवबोधितवन्तम् जामिता विदलनम् न तपङ्क्तेर्दत्तदेवमनिशम् कलयामि. तारकम् भव महाजलराशे पूरकम् पदनते सितराशे वारकम् कलिमुखोत्तभयानाम् दत्तदेवमनिशम् कलयामि. सत्यजित्सुख निरन्तरसक्त स्वान्तमानत जनम् विदधानम् श्रान्तलोकततितोषणचन्द्रम् दत्तदेवमनिशम् कलयामि. रक्षणाय जगतो धृतदेहम् शिक्षणाय च दुरध्वगतानाम् वृक्षराजपरिभाविनितालम् दत्तदेवमनिशम् कलयामि. नवरत्नमालिकेयम् ग्रथिता भक्तेन केनचित् यतिना गुरुवर चरणाब्जयुगे तन्मोदायार्पित चिरं जियात्.